इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः गणेश हेगडे। आदौ मुख्य वार्ताः। प्रधानमंत्री श्री नरेन्द्र मोदी उक्तवान् यत् आतंकवादः कस्मिन्नपि रूपे उत आतंकवादस्य कथमपि प्रकटीकरणं न्यायं समुचितं वा अस्ति इति अनुमोदनं कर्तुं न शक्यते। प्रधानमंत्री अद्य नवदिल्ली नगरे स्वनिवासे विंशतिं प्रतिविंशति विश्व चषक विजेत्रा भारतीय पुरुष क्रिकेट दलेन सह मिलितवान्। झारखंड मुक्ति मोर्चायाः कार्यकारी अध्यक्षः हेमंत सोरेनः अद्य झारखंडस्य मुख्यमंत्रित्वेन शपथवचनं गृहीतवान्। असम अरुणाचल प्रदेशयोः तोयप्लवस्थितिः गभीरायते, सैन्यबलेन आपदुद्धार अभियानं सजवं चाल्यते। अपि च विम्बल्डन टेनिस स्पर्धायां भारतस्य यूकी भाम्री फ्रांस देशीयेन अल्बानो ओलिवेटी इत्यनेन सह सम्भूय स्पर्धिष्यते। अथ वार्ताः विस्तरेण। प्रधानमंत्री श्री नरेन्द्र मोदी उक्तवान् यत् आतंकवादः कस्मिन्नपि रूपे उत आतंकवादस्य कथमपि प्रकटीकरणं न्यायं समुचितं वा अस्ति इति अनुमोदनं कर्तुं न शक्यते। सः अवदत् यत् अन्ताराष्ट्रिय समुदायेन ते देशाः ये आतंकवादिनां कृते आश्रयं ददति आतंकिभ्यः सुरक्षितस्थानानि प्रदातुम् आतंकवादस्य अनुमोदनञ्च कुर्वन्ति तेषां देशानां पृथक्करणपूर्वकं मुखाच्छादकम् अपाकरणीयम्। एषा टिप्पणी विदेशमन्त्रिणा डॉ एस जयशंकरेण कृता। विदेशमन्त्री सम्प्रति कजकिस्तानस्य आस्ताना नगरे आयोज्यमाने एससीओ इति शिखर सम्मेलने परिचर्चावसरे भाषते स्म। विदेशमन्त्रिणा अत्र सम्मेलने चीनदेशस्य विदेशमन्त्रिणा वांग यी इत्यमुना सहापि मेलनं कृतम्। मेलनेऽस्मिन् उभयोः देशयोः सीमावर्ति क्षेत्राणां विवादस्य शीघ्र समाधान विषये मन्त्रणा जाता। उभावपि पक्षौ राजनैक माध्यमेन सैन्यमाध्यमेन च विवाद समाधानार्थं सहमतौ जातौ। डॉक्टर एस जयशंकरेण प्रोक्तं यत् वास्तविक नियंत्रण रेखायाः सम्माननं सीमावर्ति क्षेत्रेषु शान्ति सन्धारणञ्च निश्चप्रचं कर्तुं नितान्तम् आवश्यकम् अस्ति। अमुना प्रोक्तं यत् परस्पर सम्माननं मिथः संवेदनशीलता उभयोः हितसाधनञ्च भारत चीनयोः द्विपाक्षिक सम्बन्धानां नेतृत्वं करिष्यन्ति। प्रधानमंत्री श्री नरेन्द्र मोदी अद्य नवदिल्ली नगरे स्वनिवासे विंशतिं प्रतिविंशति विश्व चषक विजेत्रा भारतीय पुरुष क्रिकेट दलेन सह मिलितवान्। भारतीय क्रिकेट दलनायकः रोहित शर्मा, प्रशिक्षकः राहुल द्रविडः, विराट कोहली, हार्दिक पांड्या, सूर्यकुमार यादवः, जसप्रीत बुमराह सदृशाः अन्ये क्रीडकाः उपस्थिताः आसन्। प्रधानमंत्री क्रीडकैः सह संवादं कृतवान् यत्र ते स्वस्य अनुभवान् विनिमयीकृतवन्तः। भारतीय क्रिकेट दलम् अद्य प्रातः नवदिल्लीं सम्प्राप्तं, तेषां भव्यं स्वागतं जातम्। भारतीय पुरुष क्रिकेट दलं बार्बडोस नगरात् स्वदेशं प्रत्यागतम् अपि च विश्वविजयी भूय दलस्य पुनरागमनं भव्यम् अभवत्। गतशनिवासरे जून मासस्य ऊनत्रिंशे दिनांके दक्षिण आफ्रिका विरुद्धं रोमाञ्चकर्याम् अन्तिमक्रीडायां भारतीय दलेन विश्वचषकं स्वायत्तीकृतम्। एतस्मिन् विशेषे क्षणे दलं प्रधानमन्त्रिणा श्रीनरेन्द्र मोदिना मिलितम्। क्रीडकैः मोदिना सह प्रातः भोजनं कृतम्। अत्रावसरे श्रीमोदिना तेषां क्रीडकानां विजयस्य प्रशंसा कृता। तदनन्तरं दलं पथप्रदर्शनार्थं मुम्बईनगरं प्रति निर्गतम्। दलनायकः रोहित शर्मा प्रशंसकानां कृते उत्सवे सम्मिलितुं हृदयहारि आह्वानं कृतवान्। अवधेयमस्ति यत् तेषां क्रीडकानां भारतं पुनरागमनं झंझावातेन विलंबितं चेदपि सर्वे प्रशंसकाः उत्सुकतापूर्वकं स्वदलस्य प्रतीक्षां कृतवन्तः। झारखंड मुक्ति मोर्चायाः कार्यकारी अध्यक्षः हेमंत सोरेनः अद्य झारखण्डस्य मुख्यमन्त्रित्वेन शपथं स्वीकृतवान्। राज्यपालेन सीपी राधाकृष्णन वर्येण राजभवने तस्मै पदगोपनीयतायाः शपथवचनं कारितम्। अवधेयमस्ति यत् हेमन्तसोरेनः तृतीयवारं मुख्यमन्त्रिपदम् आरोहति। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। गतमासस्य ऊनत्रिंशत् दिनांकात् आरभ्य अविरामवृष्ट्या भृशं प्रभावितेषु असमस्य धेमाजी मण्डलस्य सिवागुरी ग्रामेषु, अरुणाचलप्रदेशस्य पूर्व सियांग मण्डलस्य मेरग्रामेषु च व्यापकरूपेण जलौघ जनोद्धार कार्यक्रमेषु भारतीयसेना सक्रियरूपेण संलग्ना अस्ति। भारतीयसैन्यबलेन, राज्य आपदामोचनबलेन च सम्भूय जलौघ प्रभावित क्षेत्रेषु जलौघ पीडितानां जनानां समुद्धाराय तीव्राभियानं प्रचालितमस्ति। अस्मिन् अभियाने सिवागुरी, नामसिंहघाट, पलगाम, ओरियानघाट इत्येतेषु क्षेत्रेषु अष्टचत्वारिंशत् नागरिकाः ससुरक्षं निष्कासिताः, येषु सप्तदश बालकाः, विंशति महिलाः, एकादश वृद्धाः नागरिकाः च समाविशन्ति। ततः परं इमे समुद्धारिताः जनाः अस्थायी आश्रयस्थानेषु संस्थापिताः। जलप्रलयग्रस्तानाम् एतेषां सर्वेषां कृते भोजनं, जलं, चिकित्सासाहाय्यं च सैन्यबलेन प्रदत्तमस्ति। अधुना यूएई इति संयुक्त अरब अमीरात देशे यात्रारताः भारतीयाः प्रवासीजनाः च विक्रयण यन्त्रमाध्यमेन यूपीआई क्यूआर कोड इति विधिना च धनस्य प्रदानं कर्तुं शक्नुवन्ति। एनपीसीआई इंटरनेशनल पेमेंट्स लिमिटेड इत्यनेन सम्पूर्णे मध्यपूर्वे, आफ्रिकादेशे च मुख्यतया डिजिटल वाणिज्य सक्षमकर्तृणा नेटवर्क इंटरनेशनल इत्यनेन सह सहयोगत्वेन विक्रयस्थानेषु क्यूआर कोड आधारितस्य एकीकृत धनविनिमय अन्तर्जालफलकीयं सौविध्यं यूएई देशे भारतीयेभ्यः यात्रिभ्यः सुलभायितम् अस्ति। अस्य उपक्रमस्य उद्देश्यं यूएई देशे भारतीय पर्यटकानां कृते निर्विघ्न व्यवहारः अनुभवं प्रदातुं वर्तते। सामान्य आपणेषु, आतिथ्य परिवहन, सुपरमार्केट चेत्यादिषु विविधेषु क्षेत्रेषु प्रसारितानां द्विलक्षाधिकेषु विपण्यकेन्द्रेषु एतत् सौविध्यं प्रदत्तमस्ति। अद्य राजनाथसिंहः आस्ट्रेलियादेशस्य उपप्रधानमन्त्रिणा, रक्षामन्त्रिणा च रिचर्ड मार्लेस इत्यनेन सह दूरभाषेण वार्तालापं कृतवान्। सामाजिक संजालीय सन्देशे रक्षामन्त्रिणा सिंहमहोदयेन उक्तं यत् द्विपक्षीय रक्षा सहकार्य सम्बद्धानां विविध विषयाणां समीक्षा कृता, यत्र भारत प्रशान्तक्षेत्रे द्वयोः देशयोः निकटतर सहकार्यं केन्द्रीकृतम् आसीत्। सः अवदत् यत् भारतम् आस्ट्रेलियादेशेन सह व्यापक रणनीतिक सहयोग विषये महत् मूल्यं ददाति। रक्षामन्त्रालयस्य अनुसारं द्वयोः मन्त्रिणोः व्यापक रणनीतिक सहमतेः अन्तर्गतं रक्षा सहकार्यस्य परिवर्तनकर प्रगतिः अवलोकिता। उपराष्ट्रपतिः जगदीप धनकड़ः शनिवासरात् केरलस्य द्विदिवसीय भ्रमणं करिष्यति। स्वस्य भ्रमणस्य प्रथमदिने धनकड़ महोदयः भारतीय अन्तरिक्ष विज्ञान प्रौद्योगिकी संस्थायाः द्वादशे दीक्षांत समारोहे मुख्य अतिथिरूपेण दीक्षांत सम्बोधनं करिष्यति। सः उत्कृष्ट छात्राणां कृते संस्थायाः उत्कृष्टता पदकम् अपि प्रदास्यति। जुलाई मासस्य सप्तमे दिनांके कोल्हम अष्टमुदी पृष्ठजलयोः भ्रमणं कर्तुं उपराष्ट्रपतिना निश्चितम् अस्ति। विम्बल्डन टेनिस स्पर्धायां भारतस्य यूकी भाम्ब्री फ्रांस देशीयेन अल्बानो ओलीवेटी इत्यनेन सह सम्भूय कजकिस्थान देशस्य अलेक्जेंडर बुब्लिकस्य, अलेक्जेंडर शेवचेंको इत्यस्य च युगलं विरुध्य स्पर्धिष्यते इति वार्ताः।